इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। पश्चिम बंगाल राज्ये द्वितीय चरणस्य मतदानाय निर्वाचन प्रचारः चरमोत्कर्षे वर्तते। वरिष्ठ नेतारः तावत् मतदातॄन् आक्रष्टुं निर्वाचन प्रचारे निमग्नाः सन्ति। सर्वोच्च न्यायालयेन विशेष गहन पुनरीक्षणे पश्चिम बंगाल मतदातृ सूचितः नाम निष्कासन विरुद्धं याचिका श्रवणं निराकृतम्। भारतेन सार्क मुद्रा विनिमय तन्त्रस्यान्तर्गतं मालदीव देशाय 3,000 कोटि रूप्यकाणि निष्कासनाय अनुमतिः प्रदत्ता। सर्वोच्च न्यायालयेन घोषितं यत् कोऽपि न्यायालयः कामपि महिलां विशेषतः अल्पवयस्कां तस्याः इच्छायाः विरुद्धं गर्भधारणार्थं बाधयितुं न शक्नोति। भारतीय ऋतु विज्ञान विभागेन राजस्थान उत्तर प्रदेश छत्तीसगढ़ मध्य प्रदेश विदर्भ क्षेत्रेषु उष्णतरंगस्य पूर्वानुमानं प्रख्यातम्। अपि च आईपीएल क्रिकेट स्पर्धायाम् अद्य रात्रौ बेंगलुरु नगरे रॉयल चैलेंजर्स बेंगलुरु दलं गुजरात टाइटन्स दलेन सह स्पर्धिष्यति। अथ वार्ताः विशदीकृत्य। पश्चिम बंगाल राज्ये 42,000+ आगामी 31 दिनांके आयोज्यमानस्य द्वितीयांतिम चरणस्य मतदानाय संप्रति प्रचार कार्यं चरमोत्कर्षे वर्तते। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता प्रधानमंत्री नरेन्द्र मोदी अद्य पानीहाटी इत्यत्र दलीय प्रत्याशिनां समर्थने एकां जनसभां संबोधितवान्। प्रधानमन्त्रिणा प्रतिपादितं यत् प्रथमचरणस्य प्रचण्ड मतदाने राज्ये परिवर्तनस्य स्पष्टः संकेतः प्राप्यते। सः अवदत् यत् आगामिमासस्य 4th दिनांके परिणामानन्तरं राज्यं भ्रष्टाचार सिंडिकेट राज महिलापमान अवैधप्रवेश वृत्तिहीनताभ्यः मुक्तो भविष्यति।
बंगाल में घुसपैठियों को लाकर बसाया जा रहा है। यहां घुसपैठिए बंगाल की जमीनों पर कब्जा कर रहे हैं, यहां के लोगों का रोजगार छीन रहे हैं। एक ओर टीएमसी का करप्शन, दूसरी ओर घुसपैठियों का दबाव। बंगाल के युवाओं को अपना घर छोड़कर रोजगार की तलाश में पलायन करना पड़ रहा है।
अपरतः केन्द्रीय मंत्री अमित शाहः कोलकाता नगरस्य न्यू टाउन इत्यत्र वार्ताहर सम्मेलने प्रमाणितवान् यत् भाजपादलं प्रथमचरणस्य 45,000+ दशाधिकशतात् अधिकानि आसनानि जेष्यति। तृणमूल कांग्रेस नेत्री ममता बनर्जी भवानीपुर क्षेत्रे प्रचारं करोति। अपरत्र तृणमूल कांग्रेस दलस्य महासचिवः अभिषेक बनर्जी हावड़ा दक्षिण 24 परगना मंडलेषु पथ प्रदर्शनं करिष्यति। कांग्रेस सांसद राजीव शुक्ल उच्च मतदान प्रतिशतस्य प्रशंसां कुर्वन् उक्तवान् यत् एषा सुखद घटना अस्ति, परन्तु अस्य वास्तविकः प्रभावः परिणामानन्तरमेव स्पष्टः भविष्यति। सर्वोच्च न्यायालयेन अद्य पश्चिम बंगाले विशेष गहन संशोधनस्य अनन्तरं मतदातृ सूचितः तेषां नाम्नां निष्कासनेन व्यथितानां जनानां रिट याचिकायाः श्रवणं निराकृतम्। परन्तु वर्तमान विधानसभा निर्वाचने ते निर्वाचनाधिकारिणः सन्ति इत्यपि सूचितम्। भारतस्य मुख्य न्यायाधीशस्य सूर्यकान्तस्य नेतृत्वे पीठेन याचकेभ्यः याचिका न्यायाधिकरणं प्रति गन्तुं निर्देशः कृतः। एतानि न्यायाधिकरणानि विशेष गहन संशोधनस्य परीक्षण प्रक्रियावधौ मतदातृसूच्यां नाम्नां विलोपनस्य विरुद्धं विहितयाचिकानां विचारार्थं निर्मितानि सन्ति। भारतेन सार्क मुद्रा विनिमय तन्त्रस्यान्तर्गतं मालदीव देशाय 30,000 अर्बुदरूप्यकाणां प्रथम निर्गम प्रक्रियायै अनुमतिः प्रदत्ता। माले नगरस्थेन भारतीय उच्चायोगेन सूचितं यत् एषा धनराशिः तस्य तन्त्रस्य भागः अस्ति यस्मिन् गत अक्टोबर मासे राष्ट्रपति मोहम्मद मुइज्जु इत्यस्य भारतयात्रायाः समये भारतीय रिजर्व बैंक मालदीव सर्वकारयोः मध्ये सहमतिः जाता। उच्चायोगेन विज्ञापितं यत् इयं सुविधा मालदीव देशस्य वित्तीय स्थिरतां स्थापयितुं महतीं भूमिकां निर्वक्ष्यति। भारतं स्वकीयायाः प्रतिवेशी प्रथमः नीतेः तथा च सागर इति दृष्टिकोणान्तर्गतं मालदीवदेशाय निरन्तरं सहयोगं प्रयच्छति। अनेन सिद्धं भवति यत् भारतं संकटापन्नसमये कश्चन विश्वसनीयः सहभागी भवितुमर्हति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। सर्वोच्चन्यायालयः अद्य एकस्मिन् महत्वपूर्णे निर्णये प्रतिपादितवान् यत् कोऽपि न्यायालयः कामपि महिलां विशेषतः अल्पवयस्कां तस्याः इच्छायाः विरुद्धं गर्भधारणार्थं बाधयितुं न शक्नोति। न्यायमूर्ति बीवी नागरत्ना तथा च न्यायमूर्ति उज्ज्वल भूय्या इत्यनयोः न्यायपीठेन अद्य एकस्याः 15-वर्षीयायाः बालिकायाः 7-मासाधिकं गर्भं चिकित्सकीयरीत्या निष्कासयितुम् अनुमतिः प्रदत्ता। पीठेन स्पष्टीकृतं यत् महिलायाः प्रजननसम्बद्धस्वायत्तता सर्वोपरि वर्तते। न्यायालयस्य मते महिलायाः शारीरिकी मानसिकी च अखण्डता लोकतन्त्रस्य आधारभूता अस्ति। न्यायालयेन एतदपि प्रोक्तं यत् स्वस्य शरीरस्य विषये निर्णयाधिकारः विशेषतः प्रजननसम्बद्धेषु विषयेषु संविधानस्य 21 अनुच्छेदस्यान्तर्गतं व्यक्तिगतस्वातन्त्र्यं गोपनीयता च अनिवार्यः अंशः अस्ति। केन्द्रसर्वकारेण स्पष्टीकृतं यत् पश्चिम एशियाक्षेत्रे उत्पन्नायाः स्थितेः सत्त्वादपि देशे LPG इत्यस्य आपूर्तिः सुचारुरूपेण प्रचलति। कुत्रापि वातेन्धनस्य न्यूनता नास्ति। नवदिल्ल्यां मन्त्रालयस्तरीये उपवेशने पेट्रोलियम् प्राकृतिक गैस मन्त्रालयस्य सचिवः सुजाता शर्मा अवदत् यत् सर्वकारः देशे गार्हस्थिक इन्धनस्य अबाधप्रवाहं सुनिश्चिनोति। तया ग्राहकाः परामृष्टाः यत् ते आन्लैन् माध्यमेन सिलेण्डर् पञ्जीकरणं कर्तुं तथा च विक्रेतृकेन्द्रेषु अवरोधं मा कुर्वन्तु। सा अग्रे सूचितवती यत् वाणिज्यिक LPG आपूर्तिः अपि 70% यावत् पुनः स्थापिता अस्ति। देशे पेट्रोल डीजल इन्धनयोः अपि पर्याप्तः सङ्ग्रहः विद्यते। अनेनैव सह पत्तनपोत जलमार्गमन्त्रालयस्य निदेशकः मनदीपसिंहरन्धावा अवदत् यत् सर्वकारः भारतीय नाविकानां कल्याणार्थं तथा च समुद्रीव्यापारस्य निरन्तरतायै सर्वैरपि हितधारकैः सह सम्पर्कं करोति। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अपि उक्तवान् यत् मन्त्रालयः पश्चिम एशिया संकटस्य घटनानां सूक्ष्म निरीक्षणं कुर्वन्नस्ति। आम आदमी पार्टीति दलाय अद्य महत्तरम् आघातं प्रयच्छन् तस्य 3 राज्यसभासांसदाः राघवचड्डा सन्दीप पाठकः अशोकमित्तलः चेत्येते दलपरित्यागस्य घोषणाम् अकुर्वन्। अद्य नवदिल्ल्यां वार्ताहरसम्मेलने राघवचड्डा इत्यसौ उद्घोषितवान् यत् सः अन्यैः कतिपयैः राज्यसभासांसदैः सह भारतीय जनता पार्टीति दले सम्मिलितो भविष्यति। अनेन राजनैतिक परिवर्तनेन संसदः उच्चसदने समीकरणानि परिवर्तयितुं शक्नुवन्ति। भारतीय ऋतुविज्ञानविभागेन सोमवासरपर्यन्तं राजस्थाने उत्तरप्रदेशे छत्तीसगढ़े मध्यप्रदेशे विदर्भे च उष्णतरङ्गस्य सम्भावना व्यक्तीकृता। श्वः पर्यन्तं चण्डीगढ़ दिल्ली हरियाणा पंजाब बिहारेषु अपि एतादृशी स्थितिः एव स्थास्यति। विभागेन प्रोक्तं यत् अस्मिन् समये एव कोङ्कणप्रदेशे पश्चिमबंगाले ओडिशायां तमिलनाडौ तटीय आन्ध्रप्रदेशे तटीय कर्नाटके तथा गुजरातस्य तटीय प्रदेशेषु उष्णार्द्रा च स्थितिः प्रवर्तिष्यते। IPL क्रिकेट क्रीडायामद्य बेंगलुरुनगरस्य एम चिन्नस्वामी क्रीडाङ्गणे सायं 7:30 रॉयल चैलेंजर्स बेंगलुरुदलं गुजरात टाइटन्स दलं सम्मुखीकरिष्यति। गतरात्रौ मुंबई नगरस्य वानखेड़े क्रीडाङ्गणे चेन्नई सुपर किंग्स दलेन मुंबई इंडियंस दलं 3-100 धावनांकैः पराजितम्। इति वार्ताः।